सर्वेभ्यः सिद्धान्तकौमुद्याः त्रिप्रत्ययप्रकरणे चतुर्थः पाठः अक्टोबर् मासस्य त्रयोविंशः दिनाङ्कः येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य ऋक्तिः परिभान्ति च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। सिद्धान्तकौमुद्यां त्रिप्रत्ययप्रकरणे नीविधायकानि सूत्राणि अधीयन्ते। त्रिप्रत्ययप्रकरणम् आरब्धं साद्विधायकेन सूत्रेण, एकमेव सूत्रमस्ति अजातिदृष्टात्, ततः ऋणेभ्यो ङीप् विदश्च मनोरथ इति त्रीणि सूत्राणि, तैः ङीप् प्रत्ययः विहितः। ऋणेभ्यो ङीप् इत्यनेन ऋकारान्तेभ्यः नकारान्तेभ्यश्च ङीप् विहितः, उगिदश्च इत्यनेन उगिदन्तात् प्रातिपदिकात् ङीप् विहितः, मनोरथसूत्रेण वन्नन्तात् तदन्तात् च प्रातिपदिकात् ङीप् विहितः, प्रातिपदिकस्य च रेफः अन्तादेशः। ततः पादोन्यतरस्यां पावृचि इति सूत्रद्वयम्, कृतसमासान्तस्य पादशब्दस्य ङीप् विकल्पेन विधीयते पादोन्यतरस्यां। तत्रैव यदि सः शब्दः ऋग्वाच्यः तर्हि ताप् भवति इति तावृचि इति सूत्रेण। इदानीम् अग्रिमं सूत्रमस्ति अस्मिन् पादे, सर्वाणि त्रिप्रत्ययविधायकानि सूत्राणि अष्टाध्याय्याः चतुर्थाध्याये प्रथमपादे सन्ति। अत्र दशमं सूत्रमस्ति न षट् सूत्रादिभ्यः, न षट् सूत्रादिभ्यः इति पदच्छेदः, अजातितष्टाप् इत्यतः टाप् इति अनुवर्तते, ऋणेभ्यो ङीप् इत्यतः ङीप् इत्यपि अनुवर्तते, इदं विशेषसूत्रं फ्रम् द न नो टाप् और् नो ङीप्। इदं सूत्रं पूर्वमेव अधीतम्, आल्रेडि स्टडीड् दिस् इन् अगन्तपुल्लिङ्गप्रकरणम् न षट् सूत्रादिभ्यः, हि रिपीट्स् इट् हियर् बिकास् आफ् द कान्टेक्स्ट्, षट् संज्ञकेभ्यः सूत्रादिभ्यश्च नी टापो न स्तः। सो फोर् वर्ड्स् विच् हेव् द षट् संज्ञा आर् फोर् द सूत्रादि, the first which belong to the sastradi class, there is neither neep nor taap. So shat samya idhiyate shnanta shat iti sutrena, shakaranta nakaranta cha sankhya shat samya kya. So a number which ends either in shakara or nakara, like you have shashi, you have panchan, sattan, ashtan, navan, dashan, all these are called shat. So these words will not have neep or taap. That is why starting from pancha, there is no linga bheda. That is pullinga or strilinga in the same form. So that is about the shat samya. And then you have swastradigana. The swastradigana contains seven words. Swata, tisrashta, tisrashta, ननान्दा गीता तथा याता मासेति सप्तैते वस्त्रादय उदाहृताः इति कारिका। सो दीस् आर् आल् ऋकारान्त वर्ड्स्, स्वसृ तिसृ चतसृ ननान्द्र दुहितृ यातृ मातृ, सेवन् ऋकारान्त। स्वसृ सिस्टर्, तिसृ स्त्री इन् फेमिनैन्, Satasri is four in feminine, Nanandri is sister-in-law, that is not husband's sister is Nanandru. Duhitru is daughter. Yatri is co-sister, the wife of husband's brother. And Matru is mother. So these seven will not have any three brothers because they are all Rukarantas. Rukarantatvat runebhyo niti nip prateha prasaha nip na bhavati. Sarve Rukarantaha eva bhavanti. Evam shashtamyukeshu api na bhavati. So pancha iti shashtamyayaha udaharana. Tatasraha iti sasradinam udaharana. Pancha ityatra nalope krute api shantashat iti shatsamyam prati nalopas supsvara samyas dirishu krati iti nalopas asidhatvat nashat sasradibhyaha iti nata. Atta ekah prashna udeti tapaha nishedhaha kutaha nipaha nishedhaha nitaha. In the previous one, kimuchyate na shasvatradibhyaha ityanya nip tapo na staha ityanya. Sasradigane sarvesham shabdana nip praptam, nip pratyaha praptaha. So you would have got nip by the name of nip, so it has been negated. When you come to shat samnya, there is the word shat which will not have any pratyaya because of shakaranta. And the other words are all nakarantas, panchan, naman, dashan, etc. So for them, again, runebhyo neep ityanena neep prapnu. Then neepaha nishedhena alam, tapaha nishedhaha kutaha. The question, why would you want to prevent tap? Because there is no tap being added to any of these. I mean, there is no opportunity for adding tap to any of these because none of them is akaranta. स्वाकारान्तानामेव टाप्रत्ययः भवति. अत्र अकारान्ताशब्दाः केऽपि न सन्ति. किमर्थं टाप् निषेधः? वै शुड् बि से टाप् न भवति, नीप् न भवति इति चेत् अलं वा इति प्रश्नः. अतः उच्यते पञ्च इत्यत्र न लोपे कृते अपि इत्यादिना. पञ्च इत्यत्र कथं प्रक्रिया? पञ्चन् इति नकारान्तं प्रातिपदिकम्. किमस्ति अस्मिन् दशायाम्, अस्यां दशायां नकारान्तत्वात् नीप् प्राप्नोति. ऋणेभ्यो नीप् इत्यनेन नीपः प्राप्तिः अस्ति. तथैव नकारान्तसङ्ख्या अस्ति. सो नकारान्तसङ्ख्यात्वात् कृष्णान्ता षट् इत्यनेन षट् संज्ञा अस्ति. न षट्सूत्रादिभ्यः इत्यनेन नीप् निषिध्यते. सो नीप् इस् प्रिवेण्टेड् हियर् बिकास् इट् हेस् षट् संज्ञा बीङ्ग् नकारान्त. नौ वि आड् जस्ट् it. Pancha is a Pancha is a Nitya Bahuvachananta Shabda. So we add Prathama Bahuvachane Jas Pratyaya. Jas Pratyaya Se Shadbhyo Luk Ityanena Luk Bhavati Panchan Ityasti. Nalopa Pratipadikantasya Ityanena Nakaraha Luk Pite. Idanim Akarantatvam Asti Pancha Ityasna. Akarantatvata Tapaha Prasthi Asti. Akarantatvam nasti ityatah shatsamyasa nasti. So now because it is akaranta, we can add tap by ajadvyatashtap and there is no shatsamya because it is not an akaranta. Nantatva bhavena shatsamya nasti. Tatha chet nantatva bhavena shatsamyayaha apravrattau dashatsasranibhyaha iti nishedha nasya. Even if you include neep tapo nastaha. So the point he makes is the tap is included to prevent adding tap at this stage. After we remove the nakara by naloka pratipadikantasya, it becomes akara. Akarantatve kati tap nasya ityetadartham neep tapo nastaha iti tapaha nishedha krutaha. Kintu tatha tapaha nishedhe krute api अत्र टाप् निवारयितुं न शक्यः. किमर्थम्? इदानीं षट्सम्या एव नास्ति. इवन् इफ् यु इन्क्लूड् टाप् इन् द सूत्रार्थ, दट् इस् यु टेक् टाप् बै अनुवृत्ति अन् इन्क्लूडेड्, यु केनाट् प्रिवेण्ट् टाप् हियर् बिकास् since it is not an akarantaram, there is no shatsamya. If there is no shatsamya, na shatsasadhipya will not apply, even if you include ta. Antatva bhavena shatsamyaha apravittau, na shatsasadhipya iti visheraha na syat. Uchyate mule, kimuktam, panchayatyatra nalope krute api, shnanta shatu iti shatsamyam prati, nalopasthusvasamyatu kvitishukuti iti nalopasya siddhatvat. Then he says, true, but naloka pratipadikantasya is in the Tripadi, 8 to 7. Ashtamadhyaya says, vidhiya vadasya satvam sutra. Nalopasya asiddhatvata shatsamya bhavati. So even at this stage, even after we remove nakara by naloka pratipadikantasya, shatsamyam prati nalopasya asiddhatvata. Since the nalopa is asiddha shatsamya, there is shatsamya even at this stage. Na shatsasadibhyaha iti nishedha bhavati iti uttaram. There is one more question here. So if we are taking asiddhatva, this nalopa pratipadikantasya should be asiddha even for tap, right? Ajadyatashtap iti tap vidhayakam sutram prati api nalopaha asiddhaha. Yadi nalopaha asiddhaha, तभी तापा प्राप्ति रेवनास्ति ताप निषेध हा कुतः इति पुनः प्रश्नः. So if we are saying alopa is asiddha and therefore there is shatsamya and we can use nashatsasanadibhya, this nalopa is asiddha even for tap. तो हे ताप विधायकम् सूत्रम् अपि सपाद सप्ताध्यायम् अस्ति. तर्हि तापः प्राप्ति रेवनास्ति. If nalopa is asiddha, we cannot have tap because it is not akaranta. So, kivartham tap nishedha iti chet, sutra uttam nalopaha sup svara samya tudvidhishu kati iti sutra masti. Purvatra siddham iti sripadyaha pratham sutram, nalopa sup svara samya tudvidhishu kati iti dhitiyam sutram. Kimuchyate nalopaha asiddhaha, kutra asiddhaha, subvidhau asiddhaha, svaravidhau asiddhaha, samyavidhau asiddhaha, krititukvidhau asiddhaha. Nalopa is asiddha only in these four cases. If it is a supvidhi, svaravidhi, samyavidhi or kritikvidhi. Okay? So in all other cases, nalopa is not asiddha. So now, for shatsamya, that is for shnanta shatu, nalopa is asiddha. Ataha nalope krute api shatsamya bhavati. Kintu ajadyata shtap iti na samyavidhi. Shtap is not, none of these. It is not a supvidhi, not a svaravidhi, not samyavidhi and not krititukvidhi. So, ajadyatashtapiti sutram prati nalopaha siddhaha. Nalopaha siddhaha ityukte akarantatva tap prapnoti. Shatsamyam prati nalopaha asiddhaha ityataha shatsamya api prapnoti. Shatsamyayaha tatvat nashatsvasradibhyaha iti nishedhaha karaniyaha. Padattham sutrarthe niptapau nasvaha iti uttam. Here, pancha ityatra nalope krite api shnanta shat iti shat samyam prati nalopas tupsvara samya tupvishishu prati iti nalopasya asiddhatvat shat sasradibhyaha iti na ta tap pratyaya na bhavati. Tap pratyaya prapno iti tap pratyaya prapti hi asti shat sasradibhyaha iti na nishityate. Thank you. Okay. Okay. Because in Karyakala Paksha, we treat samyas and parikshas as siddha, because it will apply wherever the goes. So, yes, that is all. Yes, right. Yeah, that will. Yes, so that is that depends. I mean, we have to accept the Yathodesha Paksha and Karyakala Paksha in many cases. I mean, there is no other way in some cases. So, yes, it should be. Now, yes. I didn't read up this particular argument in the Balamanorama, but yeah, this would not probably apply in the Karyakala Paksha. Yes. They would have been. Yes, sometimes if you get into that bhashya, you get sucked into it, you'll hardly find a way to come out. Because the argument. This is what Dikshita's Siddhanta is. He accepts Yathodesha Paksha and he says, uses this logic to say why Tapnishetha is needed and how it will work. So that is about Ashaksusra. Agre Manaha Iti Sutramasti Ekameva Padamasti Hindayabhyoni Vipitaha Neeti Devatthata
నశస్వస్వాదిభ్యేదేవ్యోనిషేధాత్మక
So it is no need. Sima, Sima now, Yudahmanam Dattam. If you look at the Vyakhyana for that Sima, Shi Bandhane, Aunadikaha, Manin Pratyaha. So for the Shi Bhadu, we add a Manin Pratyaya, which is a Aunadik Pratyaya. Sajateha Di Dhashya. So it was si, it becomes si man. Si man is nakara shabda. It becomes si man shabda ke ni ni nishidhe. So the neep has been negated here, but there is no neep. Neep nishidhe, raja vad rupam. So the forms will be like rajan, sima simano simanaha, etc. Neep is adhito, alloke, si ni iti syad iti bhavaha. So what would have happened if we had neep? There would have been Siman, E, Aloko, Naha, Ekkanena, Akar, Siloke, Kute, Simni, Iti Rupum, Siyat. Kendra, Tan, Nabhavati, Sima, Ityeva, Rupum, Sriyenge, Api. Nanu, Vakshamana, Dapi, Simeti, Sau, Rupa, Siddhehe, Kim, Nikin, Nishethena, Ityaha, Simano. So the Simano, he gives the second, we should have just said Sima, Why does he give Sima now? Is to indicate that this is a Maharanta. Raja, Raja now. Because this Sima can also be an Akaranta word, like Rama. So that will also happen because there is a sutra later on which gives Daap, the suffix Daap for this. So, in whether it is Daap or no Pratyaya, that is, even if it is Nakaranta or Akaranta, Prathamaika Vachane Sima Ityeva Rupam Sya, Atayeva Dvitiyam Rupam Diyate Sima now. Maharantam iti dyotayitum तदुदाहरणं सीमा सीमानौ। अग्रिमं सूत्रमस्ति अनो बहुव्रीहेः अनः बहुव्रीहेः इति छेदः द्वे पदे स्तः पुनः नीप् इति अनुवर्तते न इत्यपि अनुवर्तते नीप् न भवति अन्नन्तात् बहुव्रीहेः न नीप् बहुव्रीहिसमासः अन्न अन्तः अस्ति चेत् नीप् प्रत्ययः न भवति बहुयज्वा बहुयज्वानौ यज्वन् इति शब्दः अन्ते अन् इति श्रूयते सो वी हेव् एन् अन् अट् द एण्ड् आफ् बहुव्रीहि बहवः यज्वानः So you have bahuyajvan. Again, ranebhyo neep is prevented by anobahuvriheha. So you have forms like yajvan in the pullinga. Yajva, yajvanu, yajvanaha. Iti vat. Bahuyajva, bahuyajvanu, bahuyajvanaha. Iti nakarantasya rupani. दाम उभाभ्याम अन्यतरस्याम इति एकं सूत्रम् सो त्रीणि पदानि सन्ति दाप उभाभ्याम अन्यतरस्याम द थर्ड स्त्री प्रत्यय इट इज स्टडी इज दाप द फर्स्ट इज स्टडी दाप देन सेम विद नीप सो नीप विल एक्चुअली कंटिन्यू लेटर सो इन बिटवीन इट इज इंट्रोड्यूस्ड अनदर प्रत्यय कॉल्ड दाप दाप उभाभ्याम अन्यतरस्याम सूत्रद्वयोपात्काभ्याम् दाप् वा स्यात् पूर्णसूत्रद्वयम् अर्थात् मनः इति सूत्रम् अनोबहुव्रीहेः इत्येकं सूत्रम् एतयोः उभयोः विकल्पेन दाप् प्रत्ययः भवति अर्थात् मन्नन्तेभ्यः अन्नन्तबहुव्रीहिभ्यः च नीप् निषिद्धः विकल्पेन इदानीं दाप् प्रत्ययः विधीयते सीमा सीमे सीमानौ प्रथमैकवचने एकमेव रूपं सीमा इति द्विवचने तु भेदः दृश्यते आकारान्तत्वे दापि सति आकारान्तत्वं सम्पद्यते यु विल् हाव् द फार्म् अस् सीमा अण्ड् द द्वितीय द्विवचन फार्म् विल् बि सीमे लैक् रमा रमे रमाः यु विल् हाव् सीमा सीमे सीमाः And if it is nakaranta, since this is vikalpa, daap vikalpena vidhiyate itaha, nakaranta se pakshe, seema, seemano, seemaha. So you have seeman, you add daap. Daap prateye, dakaraha, itsamyakaha, chitu ityanena, bakarasya hanantya mityanena itsamyakaha. Dittvant, तेह लोपः भवति since this is dit another pratyaya is dit the ti of the previous part will get deleted तेह इत्यनेन ति लोपः so the an will get deleted you have seema a seema इति आकारान्तं प्राप्तम् similarly you have dama dame ramanam the word daman napumsi dama इत्यमरः so daman exists in नपुंसकलिङ्ग एण्ड् इन् स्त्रीलिङ्ग न पुंसि पुंसि न भवति स्त्रीलिङ्गे भवति नपुंसकलिङ्गे भवति स्त्रीलिङ्गे दामन् इत्यस्मात् डाप् प्रत्यये कृते दामा दामे दामाः इति रूपं प्रत्ययस्य अभावे तु दामा दामानौ दामानः इति रूपं स्त्रीलिङ्गे नपुंसकलिङ्गे तु दाम दामनी दामानि इति भवति So these two are examples for mannanta. Mannante bhya neep, neepi nishidhe, vikalpena daap bhavati. Evam eva annanta bahuvrihi, bahuyajvanna. Hatrapi daapi krite bahuyajva, bahuyajve, bahuyajvaha. Daapaha api abhave, bahuyajva, bahuyajvanau, bahuyajvanaha. उपधालोपिनः अन्यतरस्याम् इति त्रीणि पदानि सन्ति So this sutra actually comes much later in the Ashtadhyayi order. You can see that generally in the Sri Pratyaya Prakarana we go by the order of Ashtadhyayi, because Dikshita will not change the order unnecessarily. So we are going in the same order. We started with 413, 456, etc. But since this belongs to the context, he has brought a sutra forward. Ana upadhana upinivandhi tapasyamiti sivadasya ashtavimsham sutra masti atraiva upanyastam dikshitehi. बहुव्रीहे रोधसो नी क्षेत्र बहुव्रीहे है इसे नवर्तते संख्या व्यादे नी पितर नी इसे नवर्तते अनंता बहुव्रीहे है उपन्हा लोपिनः वा नी कुस्यास अनो बहुव्रीहे है इसे नैन नी निषिद्धा बहुव्रीहि एंड अनंता नी दूसरा से तृतीयो नी. This sutra says, if it is ananta bhuvihi and if it is upadhalopi. It is upadhalopi, there is a sutra alopo naha, right? Alopo naha ityanena, upadhayaha akarasya lopaha vidhiyate bhasamyaya. Like you have rajyaha for rajan. Raja rajanav rajanaha, rajanam rajanav rajyaha. Bhasamyayam satyam upadhalopaha kriyateta eva rajni iti bhavati. राजन इत्यस्माभिः राजन ई इत्यते अलोकनः इत्यनेन उपधायाः आकारस्य लोपे राज्ञी इति भवति. उपधालोपिनः अनन्तात्. सो इफ् देर् इस् एन् अनन्त बहुव्रीहि विच् हेस् दिस् उपधालोप तदा ई विकल्पेन भवति. सो ई वास् प्रिवेण्टेड् सो हियर् इट् अगेन् पुनः ई विधानमस्ति विकल्पेन पक्षे डा नीप् निषेधौ. सो आल् त्री थिङ्ग्स् अप्लै हियर्. फस्ट् अणो बहुव्रीहेः इत्यनेन नीप् निषेधः भवति. कस्य नीपः निषेधः? ऋण्येभ्यो नीप् इति प्राप्तस्य नीपः निषेधः. ततः किं प्राप्तं? डाबुभाभ्याम् अन्यतरस्याम् इत्यनेन विकल्पेन डाप् प्रत्ययः प्राप्तः. डापः अभावे अनौपधालोपिनो अन्यतरस्याम् इत्यनेन विकल्पेन नीप् प्राप्तम्. उभयोः अभावे नकारान्तं रूपम्. So there are three forms here. One form with dap, one form with neep, and another form with no three pratyaya. Okay. So if there is neep, bhurajni iti rupam. Bahavaha rajanaha yasyamsa iti. Bhurajan jasmat anabhadhanopino natarasyam iti nena vikalpena neep iti yata. So you have bhurajan e. Allopo naha iti nena अकारस्य लोपे बहुराज्ञी इति रूपम्. दापि कृते बहुराजन् आ इति भवति. तेः इत्यनेन लोपे बहुराजा इति आकारान्तम्. उभयोः अभावे बहुराजन् इति नकारान्तं प्रातिपदिकम्. सो द फार्म्स् इन् प्रथम एकवचन विद् बि बहुराज्ञी, बहुराजा, बहुराजा. द्विवचने तु बहुराज्ञौ इति एकं रूपं, बहुराजे इति एकं रूपम्, बहुराजानौ इति अपरं रूपं. त्रीणि रूपाणि भवन्ति. त्री रिसल्टेण्ट् फार्म्स् इफ् द अनन्त बहुव्रीहि हेस् उपधारोप. द एक्साम्पल् विच् वि सा अर्लियर् बहु यज्वन् इत्यत्र तु न भवति. किमर्थं न भवति? वै डस् बहु यज्वन् नाट् हेव् त्री फार्म्स्? Because it cannot have upadhalopa. Na sanyogad vamantat iti sutram asti. All these are sutras which we have studied in Shabdadhikara. So if there is a sanyoga ending in vakara or makara, allopaha na bhavati. Brahman iti asti. Makara anta sanyogaha ataha tatra brahmanaha iti eva rupam upadhalopaha na asti. Evam yajvan iti vakara anta sanyogaha tatra api upadhalopaha na asti. सो बहु यज्वन् इत्यत्र तु रूपद्वयमेव. एकं तु डाप् पक्षे एकं रूपं, डाभः नीपश्च अभावे एकं रूपं. बहुराजन् इत्यत्र तु रूपत्रयं, डापि एकं रूपं, नीपि एकं रूपम्, उभयोरभावे एकं रूपम्. सो इफ् इट् इस् मन्नन्त विल् आल्वेस् हव् टु फार्म्. इफ् इट् इस् अन्नन्त अण्ड् बहुव्रीहि केन् ईदर् हव् टु फार्म्स् आर् हव् त्री फार्म्स् डिपेण्डिङ्ग् आन् वेदर् we can apply alopanaha or not. Any questions? Yes, yes. Exactly. Yes. So, the neat is here, saying anabhuti is here. But, yes, but there is an argument, no, but if you take that, yes. That is the Nishesha. But there was an argument in this way, yes, Ichita does not take it. Maybe there is a reason. Because Ichita will not, his sutras are very, very precise. Always. Much more precise than the other Pratis. That is, but I think when I saw an argument regarding this thing, I don't know whether this applies to you. No, that is about Dabha Bhavya. Yes, yes. That is. Yes, yes. So, I mean, there is an argument about why Dabha is a vikalpa or something. There is some other related argument. I don't know. I have to look into the why. Yes, yes. So, the Sri Pratyaya Prakarana is mired in all Vakyarthas. It has many, many cases where that divided. There are many things in the Sri Pratyaya Prakarana and the Karaka Prakarana. Both of them are actually very well. Advaita, there has been a lot of advanced thought put into in the Bhashya. So, and as you go into layers, you find many things which, well, at least initially are very confusing. So, let us see. I'll just see if I can find out anything about this Anupadhalokanaha. Or maybe Dikshitar did not use it because he immediately puts this sutra so that there is no confusion. In case of other Adharvati, since the sutra comes much later, so there might be the student will not understand, the reader will not know that this is coming later. So maybe for clarity they put it, but Dikshita knew he will put this immediately afterwards so there is no confusion. That could have been one reason, because he has the facility for changing the order. And he puts it right here. So, yes. But he does not use that in the vritti because probably he thought it was not needed. Yes. So now we move on to a slightly different thing, that is we are actually studying the pratyaya. Tap, neet, tap, etc. Now he goes to something which is not related, I mean not the Sri Pratyaya itself, but a sutra related to Prakriya. That is something else which happens when there is a Sri Pratyaya, when there is Ta or Da, Aap. So, and this is a very important sutra in the sense that there is always a lot of confusion on this particular thing. Pratyaya Tha Kaat Purvasya Ata Idaap Vispatha. The sutram, Sattvamadhyaya Yasthi. Sapta Padani Sanghi Pratyasthat Kat Purvasya Ataha It Api Svaha. There is no anuratti for the sutra at all. It comes in the Angadi Kalavut. The sutra artha is very, very clear. Pratyasthat Kat Purvasya Ataha It Api Asupaha. and it is also in the same order. So the sutrartha is very clear. Pratyasthat kat purvasya kat nama kakarat. So pratyasthat kakarat purvasya akarasya ikarasya api pare. Api, it includes all. Saab, dab and dab. Saha aap subah paro nache. So we'll take the second part later. What is a subah? So pratyasthat kakarat purvasya akarasya ikarasya api pare. Sarvika iti udaharanam dattam. So we'll see the vyakhyanam palamanuramanda sarvika sarviketi. Sarvashabdat tapi savanadithe sarva shabda. So I have the prakriya, you have sarva, this is sarvanama, sarvalini sarvanama nityanena sarvanama savinyasthi. Tasmadu strilinge ajarjatashtap nityanena tap prakriya kriyate. So you have sarva, a, सवर्णदीपः अकस्वर्णे लेखः इत्यनेन सवर्णदीपे कृते सर्वा इति स्त्रीलिङ्गे रूपम् सर्वा सर्वशब्दात् टापि सवर्णदीपे सर्वा शब्दः एकदेशस्य पूर्वान्तत्वेन ग्रहणात् सर्वनामकार्यम् सो दिस् सर्वा इस् आल्सो ट्रीटेड् अस् सर्वनाम वै वी आर् डूयिङ्ग् एन् एकादेश दिस् इस् अकस्वर्णे लीपः अन्ताधिवच्च इत्यनेन योऽयमेकादेशः सः पूर्वस्य अन्तवत् परस्य आदिवत् स्यात् इत्यनेन पूर्वस्य अन्तवत् इट् इस् ट्रीटेड् एस् एन् एण्डिङ्ग् आफ् सर्व इट्सेल्फ् सो बिकास् आफ् दट् दिस् विल् आल्सो बि इन्क्लूडेड् एस् ऐ मीन् ट्रीटेड् एस् अ सर्वनाम अदर्वैस् द वर्ड् सर्वा इस् नाट् इन्क्लूडेड् इन् सर्वादिगण सो इट् वुड् नाट् हेव् मीन् सर्वनाम बट् अत्र स्वर्णदीपः क्रियते एकादेशः एकादेशस्य पूर्वान्तवद्भावेन सर्वशब्देन ग्रहणात् सर्वा इत्यत्रापि सर्वनामसंज्ञा अस्ति सर्वनामसंज्ञायाः तत्त्वात् एकादेशस्य पूर्वान्तत्वेन ग्रहणात् सर्वनामकार्यम् ततश्च अव्यये सर्वनाम्नाम् अकच् प्राप्तेः इति तेः प्राक् अकच् सूत्र अधिक अव्यये सर्वनाम्नाम् सो फार् अव्ययस् एण्ड् फार् सर्वनामास् स्वार्थे सो अत्यन्त स्वार्थे सेम् देर् इस् नो डिफरेन्स् इन् मीनिङ्ग् सो स्वार्थे अकच् प्रत्ययः भवति तेः प्रा सो बिफोर् टि टि इति अचोन्त्यादि टि द फैनल् आकार विल् बि टि सो बिफोर् दट् यु हाव् अकच् सो यु हाव् अकच् इत्यत्र केवलम् अक् इति भवति सर्व अक् आ इति अस्ति सो अत्र Now let us look at the conditions. It says, pratyasthat kakara purvasya akarasya. So there should be a kakara in a pratyaya. You have akach as a pratyaya, even though it is being added in middle. That is, pratyaya is generally added after. But ayam pratyaya teha prakbhavati. Kintu ayam pratyaya akach iti svarthe tadhita pratyaya. So pratyasthat kakara hati. Pratyasthat kakara purvasya akarasya. There is an akara. ह्रस्वाकार अतः इत्यस्ति ह्रस्वाकार बिफोर् ककार सो सर्व अक् आ इत्यस्ति सो यु हाव् एन् अकार अकारस्य इकारः स्यात् आपि परे सो वेन् फालोड् बै आप् विच् इस् द आकार आफ् टाप् यु इस् इस् कन्वर्टेड् टु इकार सो द अ बिकम्स् ई सो द फीलिङ्ग् आफ् आम् इस् सर्विका सर्वकः इति पुल्लिङ्गे सर्विका इति श्रीलिङ्गे सर्वा इत्यस्यैव अर्थः इट् मीन् आल् इत्येव अर्थे सर्विका इति सो दिस् इस् आल्सो सीन् इन् एनि केसस् यः बालकः बालिका एक्सेट्रा सो प्रत्ययस्थात् ककारात् पूर्वस्य अकारस्य इकारस्य आपि परे परम् उदाहरणमस्ति कारिका इति सो कारिकेति इति So, I didn't finish reading this. So, sarva-shabdhāte tāpi savarna-dīrthe sarva-shabdhaha ekādeśasya pūrvāntatvena grahanāt sarva-nāma-kārgir tatascha abhya-sarva-nāma-nāma iti tehat-rād-akach tatra kakārād-akāraha ucchāra-nāthaha chakāraha iti akach iti atra chakāraha harantya-mityanena ikta-myāntaprāti akāraha ucchāra-nāthaha So, what is left is ak ak iti kakārāntah-pratyaha तेहप्राक् भवति सर्वका शब्देऽस्मिन् कारात् पूर्वस्य अपः इत्युक्ते सर्विका इति रूपम् ननु कतारात् पूर्वस्य अकारस्य कथम् इत्थम् कतारेण व्यवहितया आपरतत्व अभावात् इति चेत् इट् इस् अनदर् क्वेश्चन् इट् सेस् आपि परे सो वेनेवर् यु आर् सेयिङ्ग् दिस् तस्मिन् इति निर्दिष्टे पूर्वस्य इफ् यु रिमेम्बर् दट् फ्रम् द प्रविभाषा प्रकरण इट् सेस् सप्तमी निर्देशेन विधीयमानं कार्यं वर्णान्तरेण अव्यवहितस्य पूर्वस्य बोध्यम् whenever there is saptami nirdesha the karya being indicated will be for the letter which is immediately preceding it so if you are saying iko yanachi achi pare ikaha yanadesha so the ik should be immediately preceding the ach so similarly atra api api pare iti uchyate so the ap should be immediately preceded by the akara the karya is introduced with akara akarasya itvam bhavati api pare uchyate akara sakshat paratatvena ap bhave akara should be immediately followed by ap so there is a kakara in between right? so katham atra utram iti prashnah nanu kakara purvasya akarasya katham itvam kakarena vyavahitataya ap paratatva abhavat iti chetat एनमाव्यवधानम् इति न्यायेन तद्व्यवधानस्य अभावत्व एनमाव्यवधानं तेन व्यवहितेति इति परिभाषा येन न अव्यवधानम् अव्यवधानम् इस् नो सेपरेशन् न अव्यवधानं सो डबल् नेगेशन् वेन् लाक् आफ् सेपरेशन् इस् नाट् पासिबल् एट् आल् फार् द कण्डीशन्स् आफ् दिस् सूत्र टु बि साटिस्फैड् Dakana should be before kakara. Kaat purvasya akarasya ityapi uchyate, api pare ityapi uchyate. So, dakara should be before kakara and it should be followed by aap. So, both these conditions being satisfied simultaneously, that is having a kakara in front of it and also having an aap immediately following it is not possible. There can only be a kakara and aap can only follow the kakara. So therefore, yena na abhyavadhanam, when the lack of separation, when abhyavahita purvastra is not possible, so vyavadhane eti bhavati, so paribhasha, it's a very obvious paribhasha. Otherwise the sutra would go away because it cannot apply at all. Both conditions cannot be satisfied simultaneously. Dakara cannot be followed both by kakara and aap simultaneously. So yena na vyavadhanam tera vyavahita eti ityane na, व्यवहित परकत्वं हि इत्येते सो दैट इज सपोज कारिका द नेक्स्ट एग्जांपल इज कारिका तो कारिके हि क्रियः नुल् कृ धातुः तस्मात् नुल् प्रत्ययः क्रियते कृ भु इत्यस्ति अकारेशः योरनाकौ इत्यनेन भु इत्यस्य स्थाने अक इति आदेशः भवति सो कृ अक इत्यस्ति अचोण्यति इति ऋकारस्य वृद्धिः रपरत्वं सो द कृ द ऋकार गेट्स् वृद्धि फालोड् बै उरन् रपरः सो यु हाव् आर् कार् अक् अक इत्यस्ति सो कारक शब्दात् टाप् नौ इन् स्त्रीलिङ्ग यु आर् टाप् कारक आ इति सवर्णदीर्घे कारका इत्यस्ति कात् पूर्वस्य रेफादकारस्य सो इन् कारक यु हाव् कार् A, K, A. So the akara preceding the kakara, tasya itvam bhavati. So it's karika iti rupam. So that is karika and sarika. So in both cases, in all such cases, as I said in balika, etc., you have the same situation where you have a kakara of the pratyaya, tatra swartheka pratyaya, balika, etc., balaka iti bhavati. क इति प्रत्ययः सो तत्र प्रत्ययस्थान् सकारात् पूर्वस्य अकारस्य इत्युक्ते बालिका इति रूपम् सो दट् इस् अबौट् द सूत्र द सूत्रार्थः अस्ति दलकृत्यमस्ति अतः किं नौका अतः नाम अकारात् अकारस्यैव इत्त्वं भवति प्रत्ययस्थात् सकारात् पूर्वस्य अकारस्यैव इत्त्वं भवति इति उच्यते किमर्थम् इति चेत् नौका इति दत्तम् नौ शब्दात् स्वार्थिकः कः यु हाव् द वर्ड् नौ तस्मात् स्वार्थे कप्रत्ययः भवति नौक इत्यस्ति सो दिस् इस् अ स्वार्थे कप्रत्यय प्रत्ययस्थात् ककारात् पूर्वत्र औकारः अस्ति तापि परे औकारस्य इत्वं न भवेत् केवलम् अकारस्यैव इत्वं भवेत् इत्यतः अपः इति उच्यते। प्रत्ययस्थात् किम्? प्रत्ययस्थात् तात् पूर्वस्यैव अकारस्य इत्वं भवति इति उच्यते। किमर्थम् इति चेत् शक्नोति इति शका शक्नोति शक्लशक्तौ इति धातुः दिस् इस् अ शक् धातु एण्ड् इट् गेट्स् अच् प्रत्यय बै नन्दिग्रहे पदादिभ्यो न्यूनीयतः। यु हेव् शक् अ नौ हियर् द ककार बिलोङ्ग्स् टु द धातु इट् डस् नाट् बिलोङ्ग् टु द प्रत्यय। धातोः ककारः प्रत्ययः केवलम् अकारः। सो अत्र ककारात् पूर्वस्य अकारस्य इत्वं न भवेत् इति तदर्थं प्रत्ययस्थात् इति पदं प्रत्ययस्थ ककारात् पूर्वस्यैव अकारस्य इत्वं भवति। असुपः किं? बहुपरिव्राजका नगरी। तद् असुपः इति निषेधः अस्ति। सः सः आप् सुपः परो न चेत् इति दत्तं वीक्षितैः। किमर्थम् इति चेत् बहुपरिव्राजका नगरी इति उच्यते। व्याख्यान बहुपरिव्राजक परिपूर्वात् व्रजेः रूल्। सो फस्ट् यु हाव् टु डिरैव् द वर्ड् परिव्राजक। यु हाव् व्रजि एण्ड् व्रज धातुः, तस्मात् नूल् प्रत्ययः भवति। नूलः अकादेशः। सो यु हाव् परि व्रज अक अत उपधायाः इत्यनेन वृद्धौ परिव्राजक इति रूपम्। परिपूर्वात् व्रजेः नूल्, बहवः परिव्राजकः यस्याम् इति बहुव्रीहिः। So you get the word parivrajaka. Now you do a bahuvrihi samasa saying bahavaraha parivrajakaha yasyam iti bahuvrihi. So you get bahu parivrajaka and on the samasa you are adding ta, right? Supaha luki. So you get bahu jas parivrajaka jas. Supodhata pratipadika yoho ityanena subluki bahu parivrajaka ityanena. Tasmat ta pratyaha jayate. सुपो लुकि बहुपरिव्राजकशब्दात् सा अत्र अकारस्य कात्पूर्वस्य इत्वं न। नौ इफ् यु लुक् एट् दिस् बहुपरिव्राजक आ इति क्रियते स्वर्णदिभेदते बहुपरिव्राजका इति दत्तम्। इदानीं ककारः प्रत्ययस्थः, इट् इस् ओरिजिनली डिरैव्ड् फ्रम् अक आफ् नुल्, नुल् प्रत्ययस्य स्थाने अकादेशः, तस्य ककारः। सो प्रत्ययस्थात् ककारात् पूर्वस्य अतः बहुपरिव्राज इति चकारोत्तरः अकारः अस्ति। आपि परे इत्वं स्यात् इति इत्वापत्तिः। अत्र अकारस्य कात्पूर्वस्य इत्वं न भवति। किमर्थम्? प्रत्ययलक्षणेन आपः सुपपेक्षया परत्वात्। सो नौ प्रत्ययलक्षण, वि डिलीटेड् द सुप् बहु जस् परिव्राजक जस् द जस् of parivrajaka has been deleted by supodhatu pratipadikayoho. So we use pratyayalope pratyayalakshanam and bring back that sup. So what do we have here? We have bahu jas parivrajaka jas and then tap. So saha aap supah paratvena asti. The tap is after sup. So saha aap supah paro nathet asupaha iti uktatvat atra nabhavati. अत्र अकारस्य कात् पूर्वस्य इत्वं न प्रत्ययलक्षणेन आपः सुबपेक्षया परत्वात्। नलुमता इति निषेधस्तु न। सो देन् हि सेस् नलुमताङ्गस्य इति निषेधः अस्ति किल। अङ्गकार्यकर्तव्ये प्रत्ययलक्षणं नास्ति अण्ड् दिस् इस् एन् अङ्गकार्य। सो हि सेस् नलुमताङ्गस्य इति निषेधस्तु न। तस्य लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्ये एव प्रवृत्तेः। So the nalumatangasya applies when the anga, it says what? Anga kariya kartavye lumataluktam pratyalakshanena aniyate. So the anga to be treated here is the anga for the deleted pratyaya. The pratyaya you are deleting here is just, okay? So this pratyaya angam bhavati paribrajaka is, right? So paribrajaka is the anga for यस्मात् प्रत्ययविधिः तदादि प्रत्ययङ्गम्। सो परिव्राजकशब्दात् आदौ जस् प्रत्ययः विहितः, अतः परिव्राजक इति जस् प्रत्यये अङ्गम्। टापि अङ्गम्, द कार्य विच् वि आर् डूयिङ्ग् नौ इस् एन् अङ्गकार्य फार् टाप्। द टाप् प्रत्यय हेस् बीन् पुट् आन् बहुपरिव्राजक एण्ड् नाट् जस् परिव्राजक। बहुपरिव्राजक इति समासात् टाप् प्रत्ययः कृतः, अतः अत्र अङ्गं भवति बहुपरिव्राजक इति। So the anga for the deleted pratyaya is only parivrajaka, where the anga karya we are doing now is bahu parivrajaka. Right? That is the anga. Ataha nalumata angasya eti nishedhastu na tasya lumata lupte pratyaye yadangam tasya karye eva pravrtehe itvam tu tapi ananga karyam eti na atra tan nishedhaha. So this is 7-3, right? So it applies from 641 to 74, and also if even if it does not belong to the angkarya, there are some cases where tasmin pratyaye pare iti ujjate. So where sometimes the pratyaya is indicated, that is you get it by atyahara that there should be a pratyaya. So even in that cases you take it as angkarya. So there are some cases where even when there is a pratyaya, I mean some karya for the asthamal jhaya, we treat it as anga karya because it requires a pratyaya and it applies for the anga. Arthataha api angatvam svikriyate, adhikarena api angatvam svikriyate. Both those are there. Api ananga karyam. So it should actually be tapi anga karyam. Because he says, the previous statement says, tasya lumata lupte pratyaya yadangam tasya karye. So lumata lupta pratyaya just pratyaya. So tasmin angam bhavati parivrajaka. So the argument he is making here is, the anga karya is not for the deleted, the anga of the deleted pratyaya. The anga here is different. So it's from the top anga karya. I am not sure if this is... This does not sound, it does not sound right from the previous statement. This does not follow from the previous statement. He should have said, itvam tu tapi angakaryam iti na atra tannishetha. So this is an angakarya for tap and not for just. And that is why atra nalumatangasya iti nishetha na bhavati. That is the argument he is making. But I don't see why he says tapi anangakaryam. It does not make sense. That is a different argument. Not having soup. That you cannot. You cannot prevent that if you use subha as paryudasa. Then you cannot. Prevent taf. So that is why, that is a different argument, but this argument does not, tafe anangakaryam does not make sense. Either it is it seems either it is a typing error or Varmanada Makara has made up. But the argument he is putting is that there is no nalumatangasya will not apply here. So the akara here or the tap here is preceded by sup. You bring the sup or the just pratyaya, deleted just pratyaya by pratyaya lakshana. And so asupaha, nishedha will apply and there is no itva. That is the final point he makes. So I'll just look this up a bit. So bahuparivrataka. Yes. 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 Yes, the anga for that, the deleted pratyaya is not getting the karya. This is a complete different thing. And that is why the nishedha will not apply. Nalamatangasya will not apply here. That is the argument of Balamanoramakara. But, I mean, we are just debating what his statement. He says, tapi ananga karyam. So, that word does not make sense in this context. He says, tapi ananga karyam. Supi ananga karyam. This is not the anga karya for the deleted soup. But for tap, this is still the anga karya. Api pare. Yad angam asti tatseva. Or maybe he is saying it is not ananga karya. I don't know. Tapi ananga karyam. Or he is saying that pratyasakat is not an anga karya at all. But then, I mean, if he is saying that pratyasthakat is not an angakarya, then the previous statement need not be there. Nalumatangasya iti nishedhastunna, tasya lumata lukte pratyaye yadangam. If he just says this is not an angakarya, that would be over. The previous statement does not make sense. If he says this is not an angakarya for ta. He is saying lumata lukte pratyaye yadangam tasya karya eva pravrutehe. Which means that this is not an anga for that pratyaya. That is the point he is trying to make. So if he is saying this is not an anga karya, then the previous statement need not be there. So there is some confusion here. No. What I am saying is, I mean, the argument is the Lumatangasya iti nishedha will apply when there is an anga karya, and anga karya is for the anga of the deleted pratyaya. Now, we are doing an anga karya, which is tapi pare yadangam tasya karyam kriyate. We are doing a anga karya on the anga of tap and not the anga of sup. And that is why Nanukmatangasya iti nishedhaha atra na pravartate iti vaktavyam. So that is what he intends to say. Now that is what I assume he intends to say. If he is saying that, why is he saying tapi ananga karyam? Is my question. He could have said jasi ananga karyam, that would have made sense. It is not an anga karya for the supi ananga, if we had either said supi ananga karyam or jasi ananga karyam, that would have made sense. Why does he say tapi ananga karyam? I don't know. Huh? Sorry? I could not hear you. Okay, let's not worry too much about it, but the thing is, since it is asupaha, there is a soup which is being brought by pratyaya lakshana, the tap is following soup, therefore there is no itva in this case. That is bahuparibrajaka. Okay, so we'll move on. Just one more thing if you want to finish. We'll finish this. Kat kim nandana. So, pratyaya sthat kat. Kakara, pratyaya kakara ha eva bhavet. Anyaha varanaha asti se na bhavati. Nandana ityasti. Nandadhatoho, lyut pratyaha. This is a lyut. And the lyut has been yoran akavityanena anadeshaha. So you have nandu, anu, a, ta. So there is a pratyaya, there is a makara, not a kakara. So there is an akara preceding it, there is a tap following everything, but there is no itva. It's very obvious. I mean. Nandana. Purvasya kim parasyamabhut katuka. So, katu keti, katu shabdat swarthe kaha. The word katu is, to the word katu we add the ka pratyaya. Tap savarnadirghaha. Purvasya ityanuktau, atra savarnadirghat purvam, varnad angasya baliyasvad, avadatvacha, dhitiya kakara uttarasya. Katu
द्वितीय ककारा उत्तर से अकार से आप ही परे इत्वम स्यात्। सो यू हैव द वर्ड कटु क फॉलोड बाय टा आ इज देयर। सो ककारात् पूर्वस्य अकारस्यैव भवति इति अनुक्तौ, पूर्वस्य इति अनुक्तौ, अत्र सवर्ण दीर्घात् पूर्वम्, बिफोर वी डू सवर्ण दीर्घ फॉर द क प्रत्यय एंड द टा, सवर्ण दीर्घात् पूर्वम् वर्णाद् अंगस्य बलीयत्वात्। सो देयर इज अ परिभाषा विच सेज वर्णाद् अंगम बलीयः। See here again, he says this is an anga karya, right? Tap, the patya sthat kat is an anga karya. So I don't see why he says tap. Varnad angasya baliyasvad apavada svatcha. So and also akasavana dirghaha is an apavada, would be an apavada to, pratya sthat kat would be an apavada to savana dirghaha. So, jitiya kakara uttarasya akarasya apipare isvam syat. So the kakara, akara which follows the kakara, would have been converted to E, which is not desired. Therefore, he says, Pratyasthat kat purvasya akarasya. Ata iti taparaha kim raka. First question, ataha iti kim. So, the question there about generally, why only akara? Why, whether ikara or ukara? And that is why he gave an example of nauka, where he stated the aukara will not be converted to ikara. Now he is questioning the taparakarana. Rasvasya akarasya eva bhavati iti kimartham. Raka iti asti. Kridadharathi kalbhyah kaha iti. Radhatuhu aunadikaha kapratyaha. So the dhatu here is ra, which gets the kapratyaya. Unadayo bahulam iti bahula grahanat. Kenaha iti rasvona kakarasya se netvam. So there is no rasva here. Since the katara is preceded by an akara, but it is not rasva akara, and therefore there is no itva here. Apikim karakaha. So very obvious. There is no tap means there is no itva. In this karaka, there is a pratyastha kakara, tasma purvatra akara hasti, kintu tap parakatvam nasti, aap parakatvam nasti, itvam na bhavati. So pratyastha kat purvasya ataha itu. So there are a few more vartikas and sutras related to itva, which we will see in the next class.